इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः गणेश हेगडे। आदौ मुख्य वार्ताः। प्रधानमन्त्रिणा तथा भाजपा दलस्य वरिष्ठ नेत्रा श्रीनरेन्द्र मोदिना अद्य उक्तं यत् एनडीए सर्वकारेण विगत दशवर्षेष् पञ्चविंशति कोटि जनाः दरिद्रतायाः बहिः निष्कासिताः। कांग्रेस दलस्य वरिष्ठ नेत्रा राहुल गांधिना आश्वस्तं यत् यदि तस्य दलं विजित्य सत्तायाम् आगमिष्यति तर्हि महिलानां यूनाञ्च कृते आर्थिक सहायता योजनाः आरप्स्यन्ते। एडमिरल दिनेश कुमार त्रिपाठी वर्यः अद्य नौसेना प्रमुख पदं स्वीकृतवान्। छत्तीसगढ़ राज्यस्य बस्तर संभागे न्यूनातिन्यूनं सप्त माओवादी आततायिनः मारिताः। भारतस्य ऋतुविज्ञान विभागेन पूर्वभारते मई मासस्य द्वितीय दिनांकं यावत् तीव्र तापतरंगस्य स्थितिः निरन्तरं भविष्यति इति पूर्वानुमानं कृतमस्ति। अपि च आईपीएल इति क्रिकेट प्रतिस्पर्धा मालिकायाम् अद्य लखनऊ सुपर जायंट्स अथ मुंबई इंडियंस दलयोर्मध्ये संघर्षः लखनऊ नगरे भविष्यति। अथ वार्ताः विस्तरेण। प्रधानमन्त्री तथा भाजपा दलस्य वरिष्ठ नेता नरेन्द्र मोदी अद्य उक्तवान् यत् जनाः मोदी सर्वकारस्य दशवर्षाणां कांग्रेस शासनस्य षष्टिः वर्षाणां च अन्तरं पश्यन्ति। महाराष्ट्रस्य माधानगरे जनसभां सम्बोधयन् सः अवदत् यत् यदा कांग्रेस शासनकाले ये प्रधानमन्त्रिणः भवन्ति स्म ते गरीबी हटायेंगे इति वाक्यं जपन्ति स्म, परन्तु एनडीए सर्वकारेण विगत दशवर्षेष् पञ्चविंशतिः कोटि जनाः दरिद्रतायाः बहिः निष्कासिताः। श्रीमोदी अवदत् यत् चतुर्दशोत्तर द्विशत द्विसहस्रतमे वर्षे प्रायः शतं सिञ्चन परियोजनानि दशकेभ्यः अवरुद्धाः आसन्, तेष् त्रिषष्टि परियोजनानि एनडीए सर्वकारेण निष्पादितानि। एनसीपी प्रमुखस्य शरद पवारस्य उपरि वाक्प्रहारं कुर्वन् श्रीमोदी अवदत् यत् यदा पवार महोदयः केन्द्रे कृषिमन्त्री आसीत् तदा इक्षोः उचितं देयमूल्यं 200 रूप्यकाणि आसीत्, किन्तु एनडीए शासनस्य दशवर्षेष् इक्षोः एफआरपी इति मूल्यं प्रति क्विंटल परिमितं 44.3 रूप्यकाणि यावत् वर्धितमस्ति। कांग्रेस दलस्य वरिष्ठ नेता राहुल गांधिना आश्वस्तं यत् यदि तस्य दलं विजित्य सत्तायाम् आगमिष्यति तर्हि महिलानां यूनाञ्च कृते आर्थिक सहायता योजनाः आरप्स्यन्ते। अद्य मध्यप्रदेशस्य भिण्ड क्षेत्रे सभां सम्बोधयन् सः आरोपितवान् यत् भाजपा दलं निर्धन जनानां हितविरुद्धं कार्यं करोति। एडमिरल दिनेश कुमार त्रिपाठी वर्यः अद्य नौसेना प्रमुख पदं स्वीकृतवान्। एषः आर हरिकुमारस्य उत्तराधिकारी अस्ति। प्रभारं स्वीकृत्य नवदिल्लीनगरे पत्रकारैः सह वार्तालापं कुर्वन् एडमिरल त्रिपाठी वर्यः अवदत् यत् समुद्रे सम्भाव्य विरोधिनः शान्तिपूर्वकं निवारयितुं समुद्रे समुद्राच्च युद्धे विजयं प्राप्तुं भारतीय नौसेना सर्वदा कार्यात्मकरूपेण सज्जा एव तिष्ठेत्। तेन सबलं प्रतिपादितं यत् प्रौद्योगिकीनां प्रयोगपूर्वकं राष्ट्रियविकासस्य महत्वपूर्णस्तम्भश्च भूत्वा आत्मनिर्भरतां दिशि भारतीय नौसेनायाः सतत प्रयत्नान् सुदृढीकरिष्यति। त्रिपाठीवर्यः पश्चिम नौसेना कार्यक्षेत्रस्य मुख्य ध्वजाधिकारीरूपेण कार्यं कृतवान् अस्ति। संचार विद्युत युद्ध विशेषज्ञः सः नौसेनायाः अग्रपंक्ति युद्धपोतेष् संकेत संचार अधिकारी तथा विद्युदीय युद्धाधिकारी रूपेण अनन्तरञ्च मार्गदर्शित मिसाइल विध्वंसकस्य आईएनएस मुंबई इत्यस्य कार्यकारी अधिकारी प्रधान युद्धाधिकारी रूपेण च कार्यं कृतवान्। सः भारतीय नौसेनायाः विनाश किर्च त्रिशूल नौकानां आज्ञाधिकारी च आसीत्। एडमिरल त्रिपाठीवर्यः कर्तव्यनिष्ठायाः अतिविशिष्ट सेवापदकेन नौसेनापदकेन च विभूषितः अस्ति। संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीयतन्त्रांशे अपि उपलब्धो भविष्यति। छत्तीसगढ़राज्यस्य बस्तर संभागे न्यूनातिन्यूनं सप्त माओवादी आततायिनः मारिताः सन्ति, येषु द्वे महिला विद्रोहिण्यौ अपि आस्ताम्। आरक्षिकर्मिभिः प्रोक्तं यत् संघर्षोऽयम् अभुजमाणक्षेत्रस्य वनेषु नारायणपुरजनपदे अजायत। अत्र माओवादिनां सम्भाव्यतायाः गुप्तचर सूचनानन्तरम् आरक्षिभिः साफल्यमिदं लब्धमिति। पश्चिमबंगस्य संदेशकाले प्रसंगे ये सर्वेऽपि सम्बद्धाः सन्ति तेषां विरुद्धं कठोर कार्याचरणं विधास्यते इति भाजपा वरिष्ठ नेत्रा केन्द्रीयमन्त्रिणा श्री अमित शाहेन अवदत्। उक्तम् अद्य वर्धमानपुरवा लोकसभाक्षेत्रे जनसभां सम्बोधनं कुर्वन् श्रीशाहः अवदत् यत् पश्चिमबंगदेशे अवैधप्रवेशः महती समस्या अस्ति। सः टीएमसी इत्यस्य दलस्य उपरि आरोपं कृतवान् यत् तद्दलं मतदानार्थम् अवैधरूपेण प्रविष्ट विदेशीयानामुपरि निर्भरं भवति। सः आश्वासनं दत्तवान् यत् भाजपादलं पश्चिमबंगं विकासस्य दृष्ट्या प्रथमक्रमांकस्य राज्यं करिष्यति। सर्वोच्चन्यायालयेन कामुककुकृत्यपीडितायाः विषयक पूर्वकृतादेशः प्रत्यावर्तितः। पूर्वं चतुर्दशवर्षीयायाः कुकृत्यपीडितायाः बालिकायाः प्रायः त्रिंशत् सप्ताहात्मकस्य भ्रूणगर्भस्य समाप्तिः कर्तुम् अनुमतिः प्रदत्ता आसीत्। पितृभ्यां तस्याः स्वास्थ्यस्य विषये चिन्ता प्रकटनात् अनन्तरम् उक्तनिर्णयः स्वीकृतः अस्ति। भारतस्य मुख्यन्यायाधीशौ डीवाई चन्द्रचूडः जेबी परदीवालश्च बालिकायाः सह संवादं कृत्वा बालिकायाः रुचिः सर्वोपरि इति विचार्य स्वनिर्णयं परिवर्तितवन्तौ। विदेशसचिवः विनयः क्वात्रः अद्य नवदिल्लीनगरे संयुक्त अरब अमीरातस्य अन्ताराष्ट्रिय सहकार मन्त्रिणा रीम अल हाशिमी इत्यनेन सह मिलितवान्। अस्मिन् सत्रे तौ बहुपक्षीय द्विपक्षीय सम्बन्धानां विस्तृत समीक्षां कृतवन्तौ। अथ भारत संयुक्त अरब अमीरातयोः व्यापक रणनीतिक सहभागितायाः प्रगाढीकरणार्थं करिष्यमाण उपायानां विषये अपि चर्चां कृतवन्तौ। बाह्य मणिपुर संसदीय निर्वाचन क्षेत्रस्य षड् मतदान केन्द्रेषु पुनर्मतदानम् अभवत्। अतः पूर्वं निर्वाचन प्राधिकारेण मणिपुरे अद्य बाह्य मणिपुर संसदीय क्षेत्रस्य षड् मतदान केन्द्रेषु पुनः मतदानं कर्तुं सर्वाणि मापनानि स्वीकृतानि। मतदानम् अद्य प्रातः सप्तवादनतः आरब्धमासीत्। विश्वविद्यालय अनुदान आयोगस्य राष्ट्रिय पात्रता परीक्षा यूजीसी नेट इति साम्प्रतं जून मासस्य अष्टादश दिनांके आयोजयिष्यते। पूर्वं इयं परीक्षा जून मासस्यैव षोडश दिनांके निर्धारिता आसीत्। विश्वविद्यालय अनुदान आयोगेन अभ्यर्थिनां प्राप्त प्रतिपुष्टि प्रक्रियानन्तरं अयं निर्णयः स्वीकृतः। इयं परीक्षा एकस्मिन्नेव दिवसे ओएमआर पद्धत्या भविष्यति। प्रधानमन्त्री नरेन्द्रमोदी श्री गुरु तेग बहादुर वर्यस्य प्रकाशपर्वणि सश्रद्धम् अनमत्। एकस्मिन् सामाजिक प्रसारतन्त्रजाले प्रसारिते सन्देशे श्रीमोदिना भणितं यत् आसंसारं लक्षशः जनाः साहस करुणा निस्वार्थतायाश्च अवताररूपेण तस्य स्मरणं कुर्वन्ति। प्रधानमन्त्रिणा प्रोक्तं यत् गुरु तेग बहादुर वर्यस्य जीवनम् एकस्य मार्गदर्शकस्य रूपेण कार्यं करोति। तेन अग्रे उक्तं यत् श्री तेग बहादुर वर्यस्य न्यायं प्रति सर्वजनानाम् अधिकारक्षां प्रति च सदृढा प्रतिबद्धता तस्य महानतायाः प्रमाणमस्ति। प्रधानमन्त्रिणा उक्तं यत् अत्याचार उत्पीडनयोः साम्मुख्यं तेन निर्भीत्या निष्पक्षतया च कृतम्। अन्ताराष्ट्रिय वित्त नियन्त्रण संघेन पाकिस्तान देशाय 0.1 डॉलर मितं ऋणम् अनुमोदितमस्ति। भारतस्य ऋतुविज्ञान विभागेन पश्चिमबंग ओडिशा बिहार झारखण्ड सहित पूर्वभागेषु मई मासस्य द्वितीय दिनांकं यावत् तापतरंगतः तीव्र तापतरंगस्य स्थितिः निरन्तरं भविष्यति इति पूर्वानुमानं कृतमस्ति। दक्षिणभारते आगामिषु पञ्चदिवसेषु केषुचित् भागेषु उष्ण आर्द्रवायुसहिताः उष्णतरंगाः प्रचलन्ति। इण्डियन प्रीमियर लीग इत्याख्यायां क्रिकेट प्रतिस्पर्धा मालिकायाम् अद्य लखनऊ सुपर जायंट्स अथ मुम्बई इण्डियन्स दलयोर्मध्ये संघर्षः। लखनऊ नगरस्य एकाना क्रिकेट क्रीडांगणे सायं सप्तवादने सार्ध सप्तवादने भविष्यति।